श्रीगुरुभ्यो नमः हरिः ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पदान् शृण्वन् ज्योतिभिस्तेजसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती दीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः सहस्रपरमा देवी शतमूला शताङ्कुरा सर्वगुं हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी काण्डात् काण्डात् प्ररोहन्ति परुष परुष ेवानो दूर्वे प्रदनु सहस्रेण शतेन च या शतेन प्रदनोषि सहस्रेण विरोहसि तस्यास्ते देवीष्टके विधेमः विशा वयम् अश्वक्रान्ते रथक्रान्ते भीष्मक्रान्ते वसुन्धरा शिरसा धारयिष्यामि रक्षस्व माम् पदे पदे ओ विद्वान् प्रतिशतस्रः तमेवम् विद्वान् अमृत इह भवति नान्यः पन्थायनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतो परमा नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायणः परः नारायण परम् ब्रह्म तत्त्वम् नारायणः परः नारायण परो ध्याता ध्यानम् नारायणः परः यच्च किञ्चित् जगत् सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिष्टदत् सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेन्दम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यधोमुखम् अधो निश्चामि तस्यान्तेनाभ्यामुपरि तिष्ठति ज्वालमालाकुलम् भागे विश्वस्यायतनम् महत सन्ततगुम् शिलाभिस्तुलम् भक्त्या कोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मत तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सो प्रभुग्विमदन्त्युष्टन्नाहारमदरक्कविः वीर्यगूर्वमदशायीरश्मयस्तस्य सन्तता संतापयति स्वं देहमापादतलमस्तकः तस्य मध्ये वह्निशिखा अणियोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्था विद्युल्लेखे भवास्वरा नीवारशूखवत्तन्विल्पीता भा स्वत्यनुपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः ब्रह्मस्वशिवस्वहरिस्येन्द्रस्योऽक्षरः परमस्वराट् ऋतवम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् ऊर्ध्वेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् ॐ शान्ति शान्ति शान्तिः योपां पुष्पं वेदा पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपां पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेदा योपामायतनं वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवं वेदा यो वामायतनम् वेदा आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेद यो वामायतनम् वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति यो मुष्यतपत आयतनम् वेद आयतनवान् भवति आपो वा अमुष्यतपत आयतनम् आयतनवान् भवति य एवं वेद यो वामायतनम् वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान् भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद योपामायतनम् वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनम् वेद आयतनवान् भवति आपो वै वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेदा यो वामायतनम् वेदा आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनम् वेदा आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेदा योऽप्सुनावम् प्रतिष्ठिताम् वेदा प्रत्येव तिष्ठति राजाधिराजाय प्रसय्य साहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः